प्रथमे तु हरिं विन्द्याद्वितीयं केशवं तथा तृतीयं पद्मनाभं च चतुर्थं वामनम् पञ्चमं वेदगर्भं षष्ठं च मधुसूदनं सप्तं वासुदेवं च वराहं चाष्टमं तथा नवमं पुण्डरीकाक्षं दशमं हि जनार्दनं कृष्णमेकादशं विन्द्यात् द्वादशं श्रीधरं तथा द्वादशैतानि नामानि विष्णुप्रोक्तान्यनेकशः सायं प्रातः पठे नित्यं तस्य पुण्यफलम् चान्द्रायण सहस्राणि कन्यादानशतानि च अश्वमेधसहस्राणि फलं प्राप्नोत्यसंशयः Yeah. सर्वेषां च द्वादश्यां तु विशेषतः प्रातः काले पठे नित्यं सर्वपापै प्रमुच्यते सर्वपापै प्रमुच्यते सर्वपापै प्रमुच्यते।